अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिं श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितं इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणी रागिणे जानकी जानये वल्लवी वल्लभा यार्चितायात्मने कंसवेध्वंसिने वंशिने ते नमः कृष्ण गोविंद हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे अच्युतानंत हे माधवाधोक्षज द्वारकानायक द्रौपदी रक्षक राक्षस शोभितः सीतया शोभितो दंडकारण्य भू पुण्यता कारण लक्ष्मणेनान्वितो वानरै सेवितो अगस्त्य संपूजितो राघव पातु मां धेनुकारिष्टः निष्टकृद्वेषिणां केशिहा कंसहृद् वंशिकावादकः पूतनाकोपकः सूरजाखेलनो बालगोपालक पातु मां सर्वदा विद्युदुद्योतवत् प्रस्फुरद्वाससं प्रावृडं भोदवत् प्रोलसद्विग्रहं वन्ययामालया शोभितोरस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे कुञ्चितैः कुन्तलैर्भाजमानाननं रत्नमौलिं लसत् कुण्डलं गण्डयो हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुळं श्यामलं तं भजे अच्युतस्याष्टकं यः पठेद्दिष्टदं प्रेमतः प्रत्यहं पूरुष सस्पृहं वृत्ततः सुन्दरं वेद्यविश्वम्भरं तस्य वश्यो हरिर्जायते सत्वरं तस्य वश्यो हरिर्जायते सत्वरम्।